स्वस्त्यस्तु नो सौर्षभादिनाथः स्वस्त्यस्तु मोहाद्यजितो जितार्हन् स्वस्त्यस्तु नः शम्भव शम्भवेशः स्वस्त्यस्तु चानन्द्यभिनन्दनोऽर्हन्। स्वस्त्यस्तु नः श्रीसुमतिर्मतर्धिः स्वस्त्यस्तु पद्माभजिनः स पद्मः स्वस्त्यस्तु सत्पार्श्व सुपार्श्वदेवः स्वस्त्यस्तु चन्द्राभजिनेन्द्रचन्द्रः। स्वस्त्यस्तु पुष्पायुधपुष्पदन्तः स्वस्त्यस्तु नः शीतल शीतलार्हन् श्रेयाञ्जिनः स्वस्ति जनाय भूयात् स्वस्तीन्द्रपूज्य क्रमवासुपूज्य। स्वस्त्यस्तु नः श्रीविमलोमलात्मा स्वस्त्यस्तु वै नित्यमनन्तनाथः स्वस्त्यस्तु शर्मावह धर्मनाथः स्वस्त्यस्तु शान्तिर्भवदुःखशान्तिः। स्वस्त्यस्तु सानन्दतु कुन्थुनाथः स्वस्त्यस्तु नः शश्वदरोमरार्च्यः स्वस्त्यस्तु नः सल्लय मल्लिनाथः स्वस्त्यस्तु नः श्रीमुनिसुव्रतेशः। स्वस्त्यस्तु नः श्रीनमिनाथदेवः स्वस्त्यस्तु नः स्पष्टमरिष्टनेमिः स्वस्त्यस्तु नः पार्श्वगतेन्द्रपार्श्वः स्वस्त्यस्तु धीवर्धनवर्धमानः। धीदृग्वीर्यसुखाद्यनन्तसुगुणैर्ये क्षायिकैरञ्चिताः सर्वे श्रीजिनपुङ्गवा भगवतां तेषां गुणस्तोत्रतः। एतत् स्वस्त्ययनादपैति सकलः सङ्क्लेशभावः शुभो भावः स्यात् सुकृतं च तच्छुभविधेरादाविदं श्रेयसे। श्रीपञ्चकल्याणमहार्हणार्थं द्रागात्तभाग्यातिशयैरुपेताः तीर्थङ्कराः केवलिनश्च शेषाः स्वस्तिक्रियां नो भृशमावहन्तु
स्वस्तिक्रियां नो भृशमावहन्तु।
ये शुद्धमूलोत्तरसद्गुणानाम् आधारभावादनगारसंज्ञाः निर्ग्रन्थवर्या निरवद्यचर्याः स्वस्तिक्रियासुर्जगते हितानः
स्वस्तिक्रियासुर्जगते हितानः।
ये चाणिमाद्यष्टसवि क्रियाढ्याः तथा क्षयावास महानसाश्च राजर्षयस्ते सुरराजपूज्याः स्वस्तिक्रियासुर्जगते हितानः
स्वस्तिक्रियासुर्जगते हितानः।
ये कोष्ठबुद्ध्यादिचतुर्विधर्दी रवा पुरामर्श महौषधर्दी ब्रह्मर्षयो ब्रह्मणि तत्परास्ते स्वस्ति क्रियासुर्जगते हितानः जलादिनानाविधचारणाये ये चारणाग्र्यांबरचारणाश्च देवर्षयस्ते नतदेव वृन्दाः स्वस्ति क्रियासुर्जगते हितानः सालोकलोकोज्ज्वलनैकतानं प्राप्ता परं ज्योतिरनन्तबोधं सर्वर्षिवृन्दाः परमर्षयस्ते स्वस्ति क्रियासुर्जगते हितानः श्रेणिद्वयारोहणसावधानाः कर्मोपशान्ति क्षपण प्रवीणाः एते समस्ता मुनयो महान्तः स्वस्ति क्रियासुर्जगते हितानः समग्रमध्यक्षमिताश्च देश प्रत्यक्षमत्यक्षसुखानुरक्ताः मुनीश्वरास्ते जगदेकमान्याः स्वस्ति क्रियासुर्जगते हितानः उग्रं च दीप्तं च तपोभितप्तं महच्च घोरं चतरां चरन्तः तपोधनानिर्वृतिसाधनोक्ताः स्वस्ति क्रियासुर्जगते हितानः मनोवचः कायबलप्रकृष्टाः स्पष्टीकृताष्टाङ्गमहानिमित्ताः क्षीरामृतस्राविमुखा मुनीन्द्राः स्वस्ति क्रियासुर्जगते हितानः प्रत्येकबुद्ध प्रमुखा मुनीन्द्राः शेषाश्च ये विविधर्धियुक्ताः सर्वेऽपि ते सर्वजनीनवृत्ताः स्वस्ति क्रियासुर्जगते हितानः शापानुग्रहशक्तिताद्यतिशयैरुच्चावचैरञ्चिताः ये सर्वे परमर्षयो भगवतां तेषां गुणस्तोत्रतः ये तत्स्वस्त्ययनादपैति सकलः संक्लेशभावः शुभो भावः स्यात् सुकृतं च तच्चुभविधेरादाविदं श्रेयसे श्रीमज्जिनेन्द्राः तमोहतन्द्राः सुरेन्द्रसम्पादितदिव्यपूजाः फणीन्द्रयोगीन्द्रनुतप्रभावाः स्वागत्य ते सन्निहिता भवन्तु लब्धात्मलाभा निजसौख्यसिद्धा ये शुद्धबुद्धाः सुनयादिसिद्धाः सिद्धा समृद्धाः सुगुणैरनन्तैः स्वागत्य ते सन्निहिता भवन्तु ये पंच भेदांचित पुण्यचर्या आचरयन्ति स्वयमाचरन्तः आचार्यवर्याश्च परान् पदार्थाः स्वागत्यते सन्निहिता भवन्तु
स्वागत्यते सन्निहिता भवन्तु
ये ध्यापयन्ति स्वमत प्रसिद्धम् विशुद्धशास्त्रं विनयाद्विनेया सर्वेप्युपाध्याय पदं प्रपन्ना स्वागत्यते सन्निहिता भवन्तु
स्वागत्यते सन्निहिता भवन्तु
सर्वं सहावर्जितः सर्वसंगा ये सर्वदा ध्यानकृतावधानाः सर्वर्धयः सर्वगुणाश्च सार्वाः स्वागत्यते सन्निहिता भवन्तु
स्वागत्यते सन्निहिता भवन्तु
ये मङ्गलत्वेन मताश्चतुर्था लोकोत्तमा ये च चतुः प्रभेदाः शरण्यभूताश्च चतुर्विधा ये स्वागत्यते सन्निहिता भवन्तु
स्वागत्यते सन्निहिता भवन्तु
लोकत्रयापादितसत्सपर्याः पर्यन्तयाता प्रतिमप्रभावाः भावाधिरूढा नवदेवतायाः स्वागत्यते सन्निहिता भवन्तु
स्वागत्यते सन्निहिता भवन्तु
जयं जनानां ध्रुवमावहन्त्यो जयोर्जिता निर्जितवैरिवर्गाः जयादिदेव्यो जिनपादभक्ताः स्वागत्यताः सन्निहिता भवन्तु
स्वागत्यताः सन्निहिता भवन्तु
विद्याख्यकैवल्यविबोधरक्ता विद्याविभूत्यादिवरप्रदानाः विद्यादिदेव्यो विविधप्रभावाः स्वागत्यताः सन्निहिता भवन्तु
स्वागत्यताः सन्निहिता भवन्तु
विश्वेश्वरा विश्वजगत्सवित्र्यः पूज्या महादेव्य इति प्रतीताः जिनाम्बिकायास्त्रिजगज्जिनाम्बाः स्वागत्यताः सन्निहिता भवन्तु
स्वागत्यताः सन्निहिता भवन्तु
चातुर्णिकायाः प्रभवामरेन्द्रा जिनेन्द्रसेवा प्रतिथान्तरङ्गाः प्रभूत भूति द्युति सौख्य बोधाः स्वागत्यते सन्निहिता भवन्तु
स्वागत्यते सन्निहिता भवन्तु
तिथि प्रवृत्त्या हितलोक यात्राः तिथौ तिथौ सौख्यकराः प्रसन्नाः तिथीश्वरायक्षमुखप्रतीक्ष्याः ते सुप्रसन्ना वरदा भवन्तु
ते सुप्रसन्ना वरदा भवन्तु
मेरुं परित्यैव चरन्ति नित्यम् ये निग्रहानुग्रहदानृलोके अवस्थिता ये बहिरर्कमुख्याः ते सुप्रसन्ना वरदा भवन्तु
ते सुप्रसन्ना वरदा भवन्तु
यक्षाह्वय रक्षित धर्म मार्गाः ये गोमुखाद्यास्त्रिगुणाष्टसंख्याः संख्यावतामिष्टफलप्रदानाः ते सुप्रसन्ना वरदा भवन्तु
ते सुप्रसन्ना वरदा भवन्तु
यक्षः सपक्षी कृतभव्यलोका लोकाधिकैश्वर्यनिवासभूताः भूतानुकम्पादिगुणानुमोदाः ताः सुप्रसन्ना वरदा भवन्तु
ताः सुप्रसन्ना वरदा भवन्तु
कुलाचलाग्रोरुसरो निवासाः श्रीमुख्यदेव्यो जिनमात्रसंज्ञाः सामानिकादि त्रिदशैवृतायाः ताः सुप्रसन्ना वरदा भवन्तु
ताः सुप्रसन्ना वरदा भवन्तु
पालकाः पालित सर्वकाष्ठाः काष्ठं पराये धिगता महिम्नाम् सन्मन्त्र निघ्नाहत सर्वविघ्नाः ते सुप्रसन्ना वरदा भवन्तु
ते सुप्रसन्ना वरदा भवन्तु
जिनेन्द्र दौवारिकतां प्रपन्नाः सुरेन्द्र सम्मानित लोकपालाः सोमादयो ये क्षपितान्तरायाः ते सुप्रसन्ना वरदा भवन्तु
ते सुप्रसन्ना वरदा भवन्तु
विरोधिनां वै विजये विदग्धाः दुग्धोदगौरामितकीर्तिकान्ताः यक्षेश्वराये विजयादिसंज्ञाः ते सुप्रसन्ना वरदा भवन्तु
ते सुप्रसन्ना वरदा भवन्तु
प्रभावयन्त्यो मतमार्हतं याः प्रभापरीतो ज्वलदिव्यदेहाः प्रभादिदेव्यो ध्वजमावहन्त्यः ताः सुप्रसन्ना वरदा भवन्तु
ताः सुप्रसन्ना वरदा भवन्तु
चक्रादिदिव्यायुधसन्निविष्टाः पौलोमिकाद्यष्टविशिष्टदेव्यः शिष्टात्मनामिष्टफलप्रदानाः ताः सुप्रसन्ना वरदा भवन्तु
ताः सुप्रसन्ना वरदा भवन्तु
द्वीपाधिपादिव्यदनवृताद्याः समुद्रनाथा अपि ये परे च गङ्गादिदेवी निवहाश्च सर्वे ताः सुप्रसन्ना वरदा भवन्तु
ताः सुप्रसन्ना वरदा भवन्तु ताः सुप्रसन्ना वरदा भवन्तु ताः सुप्रसन्ना वरदा भवन्तु ताः सुप्रसन्ना वरदा भवन्तु ताः सुप्रसन्ना वरदा